अथैकादशोऽध्यायः अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितं यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम भवाप्ययौ हि भूतानां श्रुतौ विस्तरसो मया त्वत्तः कमलपत्राक्ष महात्म्यमपि चाव्ययम् एवमेतद्यथार्थ त्वात्मानं परमेश्वरं द्रष्टुमिच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् श्रीभगवानुवाच पश्य मे पार्थरूपाणि शतशो वत्सहस्रशः नानाविधानि देव्यानि नानावर्णाकृतीनि च पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा बहून्यदृश्य पूर्वाणि पश्याश्चर्याणि भारत इहैकस्थं जगत्कृत्स्नं पश्यात् सचराचरम् मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छसि न तु मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् सञ्जय उवाच एवं मुक्त्वा ततो राजन् महायोगेश्वरो हरिः दर्शयामास पार्थाय परमं रूपमैश्वरम् अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणम् दिव्यानेकोद्युतायुधम् दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयम् देवम् अनन्तम् विश्वतो मुखम् दिवि सूर्यसहस्रस्य भवेद्युपदुत्थिता यदि भाषदृष्टिः सा स्यात् भासस्तस्य महात्मनः तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तं मनेकधा अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ततः सा विस्मया वेष्टो हृष्टरूमा धनञ्जयः प्रणम्य शिरसा देवं कृताञ्जलिरभाषत अर्जुन उवाच पश्यामि देवांस्तव देवदेहे सर्वांस्तथा भूतविशेषसङ्घान् ब्रह्माणमीशं कमलासनस्थं ऋषींश्च सर्वानुरगांश्च दिव्यान् अनेकबाहूदर्वत्र नेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप किरीटिनं गदिनं च ऋणं च तेजो राशिं सर्वतो दीप्तिमन्तं पश्यामि त्वां दुर्निरीक्ष्यं समन्तात् दीप्तानलरार्क्यद्युतिमं प्रमेयं त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् त्वमव्ययः स्वाश्वतधर्मगुप्ता सनातनस्त्वं पुरुषो मतो मे अनादिमध्यानन्तमनन्तवीर्यम् अनन्तबाहुं शशिशूर्यनेत्रम् पश्यामि त्वां दीप्थुतास्वत्रम् स्वतेजसा विश्वमिदं तपन्तं द्वावा पृथिव्योरिदमनन्तरं हि व्याप्तं त्वयेकेन दिशश्च सर्वाः दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यवथितं महात्मन् अमीहि त्वां सुरसंघा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति स्वास्तित्युक्त्वा महर्षिसेद्धसङ्घाः स्तुवन्ति त्वां स्तुतुभिः पुष्कलाभिः रुद्रादित्या वसवोचये साध्या विश्वेऽस्विनौ मरुतश्चोष्मपाश्च गन्धर्वयक्षासुरसेद्धसङ्घा वीक्षन्ति त्वां विस्मिताश्चैव सर्वे रूपं महत्ते बहुवक्त्र नेत्रं महाबाहो बाहुबाहुरुपादं बहूदरं बहून्दंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहं नभास्पृशं दीप्तमनेकवर्णम् व्याप्ताननं दीप्तविशालनेत्रं दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णु दंष्ट्राकरालानि च ते मुखानि द्रष्टैव कालानलसन्निभानि दिशो न जाने न लभे च शर्म प्रसीद देवे जगन्निवास अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः भीष्मो द्रोणासूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि केचिद्विलग्नादशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिज्वलन्ति यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः लेलिह से ग्रस मानः समन्ताल लोकान् समग्रान् वदनैर्ज्वलद्भिः तेजोभिरापूर्य जगत् समग्रम् भासस्तवोग्राः प्रतपन्ति विष्णु आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद विज्ञातुमिच्छामि भवन्तमाद्यं नहि प्रजानामि तव प्रवृत्तिम् श्री भगवान वाच कालो अस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुम् इह प्रवृत्तः ऋते अपि त्वां न भवेष्यन्ति सर्वे ये अवस्थिताः प्रयत्निकेषु योधाः तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्षु राज्यं समृद्धं मय्येवेते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानापि योधवीरान् मया हतास्त्वं जहि मा व्यतिष्ठा युध्यस्व जेताशिरणे सपत्नान् संजय वाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटे नमस्कृत्वा भूयेवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य अर्जुनवाच स्थाने ऋषिकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः कस्माच्च तेना न मेरन् महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे अनन्तदेवे जगन्निवास त्वमक्षरं सदसत्तत्परं यत् त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानं वेत्तासि वेद्यं च परं च धानं त्वया ततं विश्वमनन्तरूप वायुर्यमो अग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च नमो नमस्त्यस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वतेव सर्व अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि యచ్చావసాహార్థమస్కృతోవసి విహారశయ్యాసన భోజనేషు ఏకోత్వాప్యచ్యుత సమక్షం తచ్ఛామయే త్వాం మహమప్రమేయం పితాశీలోకస్య చరాచరస్య త్వమస్య పూజ్యశ్చ గురుర్గరీయాన్ నత్వత్సమోస్త్యభ్యధికాకుతో అన్యో లోకత్రయేప్యప్రతిం ప్రభావ తస్మాత్ ప్రణమ్య ప్రణిధాయ కాయం ప్రసాదయే త్వామహమీషమీడ్యం పితేవ పుత్రస్య సఖేవ సఖ్యుః ప్రియః ప్రియాయార్హసి దేవ సోఢుం అదృష్టపూర్వం హృషితోస్మి దృష్ట్వా భయేన చ ప్రవ్యథితం మనోమి తదైవ మే దర్శయ దేవరూపం ప్రసీద దేవే జగన్నివాస కిరీటినం గదినం చక్రహస్తం ఇచ్ఛామి త్వాం ద్రష్టుమహం తథైవ తేనైవ రూపేణ చతుర్భుజేన సహస్రబాహో భవ విశ్వమూర్తే శ్రీ భగవాన్ వాచ్ మయా ప్రసన్నేన తవార్జునేదం రూపం పరం దర్శితం ఆత్మయోగాత్ తేజోమయం విశ్వమనంతమాద్యం యన్మే త్వదన్యేన న దృష్టపూర్వం న వేదయజ్ఞాధ్యనైర్న దానైర్న చ క్రియాభిర్న తపోభిరుగ్రైః ఏవం రూపః శక్యాం నృలోకే ద్రష్టుం త్వదన్యేన కురు ప్రవీర మాతవ్యథా మా చ విమూఢ భావో దృష్ట్వా రూపం ఘోరమేంద్రగమేదం వ్యపేతభిః ప్రీతమనః పునస్త్వం తదైవ మే రూపమిదం ప్రపశ్య సంజయ వాచ్ ఇత్యర్జునం వాసుదేవస్తథోక్త్వా స్వకం రూపం దర్శ్యామాస భూయః ఆశ్వాస్యామాశ్చ భీతం మేనం భూత్వా పునః సౌమ్య వపుర్మహాత్మా అర్జునవాచ్ ద్రష్ట్వేదం మానుషం రూపం తవ సౌమ్యం జనార్దన ఇదానిం అస్మి సంవృత్తః సచేతాః ప్రకృతిం గతః శ్రీ భగవాన్ వాచ్ సుదుదర్శం ఇదం రూపం దృష్టవానసి యన్మమ దేవాప్యస్య రూపస్య నిత్యం దర్శన కాంక్షిణః నాహం వేదైర్న తపసా న దానేన న చైజ్యయా శక్యం ఏవం విదో ద్రష్టుం ద్రష్టవానసి మాం యథా భక్త్యా తునన్యా శక్య అహమేవం విదో అర్జున జ్ఞాతుం ద్రష్టుం చ తత్వేన ప్రవేష్టుం చ పరంతప మత్కర్మ కన్మత్ పర్మో మద్భక్తః సంగవర్జితః నిర్వైరః సర్వభూతేషు यः स मामेति पाण्डव। ओम तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः।